कृपा प्रसादाय ज्ञानावहनादि सोमसो आदारदिव्यं पुष्पाञ्जलिम् चतुर्वेदैः आशीर्वचनम् नाना